एस रेडियो नेपाल सम्प्रति समाचार श्रीयन्ता प्रवाचक ध्रुव भट्टराई प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड राष्ट्रस्य दीर्घकालिक हिताय द्विपक्षीय सम्बन्धस्य वर्धनाय च स्वस्य चतुर्दिवसीय भारत भ्रमणम् महत्वपूर्णम् सफलम् च सञ्जातमिति सदनम् ज्ञापयति। राष्ट्रिय सभाया गतदिवसे उपवेशे सार्वजनिक महत्वस्य विषये सूचयन् प्रधानमन्त्री प्रचण्ड दीर्घकालिक हितस्य द्विपक्षीय सम्बन्धस्य च विभिन्नेष् सप्तसु प्राभिलेखनेष् संविधान विधाय सहमति पत्रस्य आदान प्रदानम् सम्पन्नमिति अज्ञापयत्। प्रधानमन्त्री प्रचण्ड भारतीय समकक्षिणा सह सम्पन्न मेलनम् व्यापारस्य पारवहनस्य निवेशन प्रवर्धनस्य ऊर्जो व्यापारस्य अन्तर्देशीय विद्युत प्रसारण प्रणाल्या जल विप्लव निमज्जन नियन्त्रणस्य कृषि सीमा गमनागमनस्य रेलमार्ग सेवा सञ्चालन कार्यस्य सेतूनाम् निर्माणस्य एकीकृत परीक्षण केन्द्रस्य शुष्क परिवहन यान विश्राम स्थलस्य च पूर्वाधार निर्माण कार्याणाम् अग्रे वर्धापनस्य विषये अर्थपूर्णम् सम्भूतम् अस्तीति न्यश्चिनत्। प्रधानमन्त्री प्रचण्ड नेपालस्य विमानोड्डयन मार्गस्य विषय अनुकूला जल विद्युत क्षेत्रीय सहकार्य सम्पादयित्री च सबला सहमति धृतेति अवोधयत्। सदने सांसदे उत्थापिताम् जिज्ञासु समयन् प्रधानमन्त्री प्रचण्ड भारतेन संसदि स्थापितस्य मानचित्रस्य विषये विषयोत्थापन क्रमे भारतेन न हि राजनीतिकम् अपितु ऐतिहासिकम् सांस्कृतिकम् च मानचित्रमस्तीति हेतु तत्तदनुरूपणैव मन्तव्यमिति उक्तमिति असूचयत्। प्रधानमन्त्री प्रचण्ड तराई क्षेत्रस्य भूमि जलमग्नताया समस्या समाधानस्य विमानमार्गस्य कालापानी लिम्पियाधुरा लिपुलेक प्रभृति सीमा समस्या समाधानस्य च विषयाणाम् शीघ्रम् निर्णयस्य सम्बन्धे देशद्वयस्य प्रधानमन्त्रिणो एव मध्ये स्पष्ट विमर्शनम् सम्भूतम् प्रतिबद्धता च व्यक्तेति ज्ञापितवान्। प्रधानमन्त्री प्रचण्ड अवोचत् नागरिकता विधेयकम् सदनद्वयेनैव पारितीकृत्य प्रमाणीकरणया राष्ट्रपति कार्यालयम् प्राप्तम् यच्च विधेयकम् सांविधानिक प्रावधानानुसारेणैव प्रमाणीकृतमिति विषय अनावश्यकरीत्या उत्तेजस्को न विधातव्यः। प्रधानमन्त्रिणा सम्बोधनमनु सांसदा भारतस्य संसद भवने स्थापितस्य मानचित्रस्य कालापानी लिम्पियाधुरा लिपुलेक भूभागानम् विषयस्य नागरिकता विधेयकस्य भ्रमणात् प्रागेव आनयनस्य कारणस्य च सम्बन्धे सन्त। राष्ट्रिय सभाया गतदिवसे उपवेशे आगामिन आर्थिक वर्षस्य राजस्व व्ययौ वार्षिकानुमानमाश्रित्य सामान्य विमर्शनम् प्रारब्धम्। विमर्शने सहभागिन सांसदः आयव्ययक वक्तव्यासानुसारेण एतस्य क्रियान्वयनाय सर्वकारेण सचेष्टेन भाव्यमिति अवदन्। सांसदै उक्तम् सर्वकारेण सञ्चालितानाम् विकास निर्माणयो कार्याणाम् व्यावहारिक क्रियान्वयनाय सहयोग प्रदायिनी नीति अवलम्बनीया। सांसदः संहिताय अवलम्बनस्य सबल विकास लक्ष्यस्य राजस्वस्य निवेशनस्य वातावरण निर्माणस्य च कार्यसु ध्यानम् दातुम् बलम् प्रादुः। आयव्ययक विषयकम् सामान्य विमर्शनम् आगामिषु उपवेशेष्वपि सञ्चालिष्यति। तत्पूर्वम् शून्यसमये सांसदः करस्य अंक सम्बद्धाय सूचनाय बहि प्रकाशकस्य जनस्य दण्डनस्य संसदीय मर्यादाय क्षयीकरणस्य यान दुर्घटनायाः राष्ट्रिय गौरवस्य आयोजनानाम् अपूर्णस्य मार्ग निर्माणस्य च विशेषु ध्यानम् आकर्षयन्। सांसदा मार्ग वर्धनस्य जनप्रतिनिधिन् प्रति वर्धमानस्य जनाक्रोशस्य च विषयम् प्रति सभाया ध्यानाकर्षणम् व्यदधुः। राष्ट्रियसभा अपरोपवेश अद्य दिवा एकवादने वसति। प्रतिनिधि सभा ह्यस्तनोपवेशे आगामिन आर्थिक वर्षस्य राजस्व व्ययो वार्षिकानुमानस्य आयव्यय विवरणस्य विमर्शने भागम् गृह्णन्तः सांसदः मिश्रित धारणा उपस्थापितवन्तः सन्ति। विमर्शने सांसदः देशस्य आर्थिकावस्थाय सुधाराय देशस्य सञ्चयनगत व्ययस्य वर्धनेन अनुत्पादक क्षेत्रे व्यय न्यूनीकरणे च प्रयत्नेन सहितस्य आयव्ययकस्य आनयनम् अनुकूलम् वर्तते इति विचारम् व्यक्तवन्तः। सांसदा सञ्चयनगत व्ययस्य वर्धन कारिण्य कार्ययोजनाया सहितम् आयव्ययक विवरणम् प्रस्तुतम् प्रभावकारिण अनुगमन संयन्त्रेण सहिता प्रतिबद्धता अनुकूला स्थिति निगद्य एतस्य क्रियान्वयने बलम् प्रादुः। सांसदा सर्वेषाम् क्षेत्राणाम् विकासे सञ्चयनगत धनस्य वर्धिकासु महत्वपूर्ण योजनासु च वित्तम् अतिरिक्तम् वर्धयितुम् बलम् अददुः। सांसदा सन्तुलित रूपेण आयव्ययकम् आनयम् जनतया उपयुज्यमानानाम् वस्तूनाम् कर न्यूनीकर्तव्यः उद्योग व्यवसायस्य समस्या समाधातव्यः कोषागाराणाम् वृद्धि धनाङ्केषु स्थिताय समस्या समाधानम् प्रति आयव्यय विवरण ध्यानम् देयमिति च धारणा उपस्थापयन्। तत्पूर्वम् प्रतिनिधिसभा ह्यस्तनोपवेशस्य शून्यसमये सांसदः नागरिकता विधेयकस्य मार्ग प्रवृत्ति पूर्वाधार निर्माणे जायमानस्य विलम्बनस्य मलबीज जाते दृष्टस्य अभावस्य च विशेषु सर्वकारस्य ध्यानम् आकर्षयन् सांसदा जातीय विभेद दण्डनीय सन्नपि विभेद न समाप्तः उष्णताय वर्धनेन मधेस क्षेत्रे जनजीवनम् प्रभावितम् चेति विशेषु सभामुखस्य माध्यमेन सर्वकारस्य ध्यानम् आकर्षयन् सांसदा यानानां दुर्घटना वर्धमाना सन्ति मार्ग सुरक्षायां ध्यानम् दातुम् न शक्तम् चेति चर्चयन्त मार्ग सुरक्षाया मापदण्डस्य अपूरणस्य विषये सर्वकारेण गभीरेण भाव्यमिति उदयरयन् प्रतिनिधिसभा अपरोपवेश अद्य पूर्वाह्नस्य एकादश वादने वसति मन्त्री परिषद गत दिवसे उपवेशेन विद्युत व्यापारस्य सम्बन्धी व्यवस्थातुं निर्मितं विधेयकं संघीय संसदि प्रस्तुतं निर्णीतमस्ति उपवेशन विधेयक समितौ विमृश्य प्राप्तस्य एतस्य विधेयकस्य संसदि प्रस्तुत्यै सम्बद्ध मन्त्रालयाय निर्देशनं दातुं निर्णीतमिति उपवेशस्य पश्चात् नेपाल सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत् मन्त्री परिषद उपवेशन चतुर्दशाधिका द्विशततम विक्रमाब्दस्य आवश्यक सेवा सञ्चालन अधिनियमस्य तृतीय नियमस्य प्रथमोपनियमस्य अनुसारेण आवश्यक सेवासु कार्यविरमं निषेद्धम् एतद् विषयकादेशेन सहितां सूचनां नेपाल राजपत्रे प्रकाशयितुं च निर्णीतमिति मन्त्री शर्मा अज्ञापयत् उपवेशन उपरितन मैलुङखोला जलविद्युत आयोजना लिमिटेड संस्था आयोजनाया विद्युत स्तम्भस्य प्रसारण मार्गाधिकारस्य कृते रसुवा नोकोट जनपदौ राष्ट्रिय वन क्षेत्रं प्रयोक्तुं तत्रस्थान वृक्षान् अपसारयितुं च निर्णीतं वर्तते उपवेशन काभ्रे पलाञ्चुक जनपदस्य पाँचखाल स्थितम् औद्योगिक ग्रामम् मैलोद्यमी विशेष औद्योगिक ग्रामस्य रूपेण रूपान्तरयितुमपि निर्णीतम् वर्तते एवमेव उपवेशेन अस्यैव ज्येष्ठस्य एकोनत्रिंशत् दिवसात् द्वात्रिंशत् दिवसं यावत् बेल्जियम देशस्य ब्रसेल्स नगरे आयोक्ष्यमाणयो एतत् ख्रीष्टवर्षीयो मेट्रोपोलिस वर्ल्ड कांग्रेस ब्रसेल्स अर्बन समिट चेति नामधेयो महानगर विश्वसभायं ब्रसेल्स नगरीय शिखर सम्मेलने च सहभागितायै काष्ठमण्डप महानगरपालिकाया प्रमुखस्य बालेन्द्र शाहस्य भ्रमणं स्वीकृत्य कालीमाटी फलपुष्प व्यञ्जना पण व्यवस्था विकास समिति अध्यक्ष उद्योग वाणिज्य पूर्ति मन्त्रालयस्य सचिवाय मदन भुजेल इत्यस्मै दायित्वं निर्धारितुं निर्णीतमिति मन्त्री शर्मा अज्ञापयत् प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह नेपालस्थ कृते स्विजरल्याण्ड देशस्य राजदूतः इलिबेथ भोन ह्य शिष्टाचार मेलनम् अकरोत् प्रधानमन्त्री मन्त्री परिषद कार्यालय सम्पन्ने तस्मिन् मेलने एतन्मध्ये नेपाल स्विजरल्याण्ड देशयो पारस्परिक सम्बन्धस्य द्विपक्षीय हितस्य च विभिन्नेषु विषयेषु विमृष्टमिति प्रधानमन्त्रिणा सचिवालयेन ज्ञापितं वर्तते एवमेव प्रधानमन्त्रिणा प्रचण्डेन सह परमाणु परीक्षण प्रतिबन्ध सन्धि कार्यकारी सचिव रोबर्ट मेलवार्ता अकरोत् तदवसरी प्रधानमन्त्री प्रचण्ड परमाणु परीक्षणस्य नियन्त्रणस्य सन्दर्भे संस्था उढाम भूमिकां प्राशंसत् मेलने कार्यकारी सचिव रोबर्ट नेपालस्य पक्षतः ज्ञापितं प्रतिबद्धतां प्रति प्रसन्नतां व्यक्तवान् सुदूर पश्चिम सर्वकारण आगामिन आर्थिक वर्षस्य कृते नीति कार्यक्रममा प्रस्तुता सन्ति प्रदेश सभाय हस्तनुपवेशी प्रदेश प्रमुख देवराज जोशी सर्वकारस्य आगामिन आर्थिक वर्षस्य नीति कार्यक्रमान् प्रस्तोत प्रस्तुतेषु नीति कार्यक्रमेषु शिक्षा स्वास्थ्य कृषि पर्यटन वृत्त्युपार्जन क्रीडा पूर्वाधार विकास प्रवृत्तिभ्य कार्ययोजनाभ्य प्राथमिकता प्रदत्ता वर्तते कोशी प्रदेश सर्वकारेण परिचयवादिभि सह वार्ताय वार्तासम्म संघटितो वर्तते यः उपविष्टेन कोशी प्रदेश सर्वकारस्य मन्त्री परिषद उपवेशेन वार्ता समूहसौ संघटितोऽस्ति उपवेशेन कोशी प्रदेश सर्वकारस्य पेयजल सेचनोर्जा मन्त्रिण कुमार मिङ्याम्बु इत्यस्य संयोजकत्वे त्रिसदस्यीय वार्ता समूह संघटितो वर्तते वार्ता समये कोशी प्रदेश सर्वकारस्य प्रवक्ता उद्योग कृषि सहकारी मन्त्री च भक्ति प्रसाद सिटौला सामाजिक विकास मन्त्री बुद्धि कुमार राजभण्डारी सदस्यौ स्तः इति समाचारः।